राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण दशम स्कंध 90 अध्याय 90 ट्रेक में।
ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम दशम स्कंध पूर्वार्थ अथ प्रथमोध्याय। राजोवाच कथितो वंश विस्तारो भवता सोम सूर्ययोः राज्ञां चोभय वंश्यानां चरितं परमाद्भुतम्। कथितो वंश विस्तारो भवता सोम सूर्ययोः राज्ञां चोभय वंश्यानां चरितं परमाद्भुतम्। यदोश्च धर्मशीलस्य नितरां मुनिसत्तम तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंसनः। अवतीर्य यदोर्वंशे भगवान् भूतभावनः कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्। निवृत्ततर्षैरुपगीयमानात् भवौषधात् श्रोत्रमनोभिरामात् कौत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात्। पितामहामे समरे मरञ्जयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः दुरत्ययम् कौरवसैन्यसागरम् कृत्वा तन्वत्सपदम् स्मयत्प्लवाः। द्रौण्यस्त्रविप्लुष्टमिदम् मदङ्गम् सन्तानबीजम् कुरु पाण्डवानाम्। जुगोपकुक्षिम् गतात्तचक्रो मातुश्च मेय शरणम् गतायाः। वीर्याणि तस्याखिलदेहभाजा मन्तर्बहिः पूरुषकालरूपैः। प्रयच्छतो मृत्युमुतामृतम् च माया मनुष्यस्य वदस्व विद्वन्। रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया देवक्या गर्भसम्बन्धः कुतो देहान्तरम् विना। कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रजम् गतः क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः। व्रजे वसन् किमकरोन् मधुपुर्याम् च केशवः। भ्रातरम् चावधीत् कंसम् मातुरद्धा तदर्हणम्। देहम् मानुषमाश्रित्य कतिवर्षाणि वृष्णिभिः। यदुपुर्याम् सः अवात्सीत् पत्न्यः कत्यभवन् प्रभोः। एतदन्यच्च सर्वम् मे मुने कृष्णविचेष्टितम् वक्तुमर्हसित् सर्वज्ञ शब्दधानाय विस्तृतम्। नैषाति दुःसहाक्षुन्माम् त्यक्तोदमपि बाधते पिबन्तम् तन्मुखाम् भोजच्युतम् हरिकथामृतम्। सूत उवाच एवम् निशम्य भृगुनन्दन साधुवादम् वैयासकी स भगवानथ विष्णुरातम्। प्रत्यर्च्य कृष्णचरितम् कलिकल्मषघ्नम् व्याहर्तुमारभत भागवत प्रधानः। श्रीशुक उवाच सम्यग् व्यवसिता बुद्धिस्तव राजर्षि सत्तम। वासुदेवकथायाम् ते यज्जाता नैष्ठिकी रतिः। वासुदेवकथा प्रश्नः पुरुषान् स्त्रीन् पुनातिः। वक्तारम् पृच्छकम् श्रोत्रीन्स्तत्पादसलिलम् यथा भूमिर्दृप्तनृपव्याज दैत्यानीकशतायुतैः। आक्रान्ता भूरिभारेण ब्रह्माणम् शरणम् ययौ गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ति करुणम् विभोः। उपस्थितान्तिके तस्मै व्यसनम् स्वमवोचत ब्रह्मा तदुपधार्याथ सह देवैस्तया सह। जगाम सत्रिनयनस्तीरम् क्षीरपयोनिधेः तत्र गत्वा जगन्नाथम् देवदेवम् वृषाकपिम् पुरुषम् पुरुषसूक्तेन उपतस्थे समाहितः। गिरम् समाधौ गगने समीरिताम् निशम्य वेधास्त्रिदशानुवाचः गाम् पौरुषीम् मे शृणुतामरा पुनर्विधीयतामाशु तथैव माचिरम्। पुरैव पुंसावधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम्। स यावदुर्व्याभरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि। वसुदेवगृहे साक्षात् भगवान् पुरुषः परः। जनिष्यते तत्प्रियार्थम् सम्भवन्तु सुरस्त्रियः। वासुदेवकलानन्तः सहस्रवदनः स्वरात् अग्रतो भविता देवो हरे प्रियचिकीर्षया। विष्णोर्माया भगवती यया सम्मोहितम् जगत् आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति। श्रीशुक उवाच इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः आश्वास्य च महीम् गीर्भिः स्वधाम परमम् ययौ। शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा। राजधानी ततः साभूत् सर्व यादव भूभुजाम् मथुरा भगवान् यत्र नित्यम् सन्निहितो हरिः। तस्याम् तु कर्हिचित् क्षौरिर्वसुदेवः कृतोद्वहः देवक्या सूर्यया सार्धम् प्रयाणे रथमारुहत्। उग्रसेनसुत कंस स्वसुः प्रियचिकीर्षया रश्मीन्हयानाम् जग्राह प्रौक्मैरसशतैर्वृतः। चतुःशतम् पारिबर्हम् गजानाम् हेममालिनाम् अश्वानामयुतम् सार्धम् रथानाम् च त्रिषट्शतम्। दासीनाम् सुकुमारीणाम् द्वेषते समलङ्कृते दुहित्रे देवकः प्रादाद् याने दुहित्रिवत्सलः। शङ्खतूर्यमृदङ्गांश्च नेदुर्दुन्दुभयः समम् प्रयाणप्रक्रमे तावद् वरवध्वो सुमङ्गलम्। पथि प्रग्रहिणम् कंसमाभास्याः शरीरवाक् अस्यास्त्वामष्टमो गर्भो हन्तायाम् वहसे बुध। इत्युक्तः स खलः पापो भोजानाम् कुलपांसनः भगिनीम् हन्तुमारब्धः खड्गपाणिः कचे ग्रहीत्। तम् जुगुप्सितकर्माणम् नृशंसम् निरपत्रपम् वसुदेवो महाभाग उवाच परिशान्त्वयन्। वसुदेव उवाच श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः स कथम् भगिनीम् हन्यात् स्त्रियमुद्वाह पर्वणि। मृत्युर्जन्मवताम् वीर देहेन सह जायते अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनाम् ध्रुवः। देहे पञ्चत्वमापन्ने देही कर्मानुगोवशः देहान्तरमनुप्राप्य प्राक्तनम् त्यजते वपुः। व्रजन् स्तिष्ठन् पदैकेन यथैवैकेन गच्छति यथा तृणजलूकैवम् देही कर्मगतिम् गतः। स्वप्ने यथा पश्यति देहमीदृशम् मनोरथेनाभिनिविष्टचेतनः। दृष्टश्रुताभ्याम् मनसानुचिन्तयन् प्रपद्यते तत्किमपि यपस्मृतिः। यतो यतो धावति दैवचोदितम् मनोविकारात्मकमापपञ्चसु गुणेषु माया रचितेषु दह्यसौ प्रपद्यमानः सह तेन जायते। ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतम् विभाव्यते। एवम् स्वमाया रचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति। तस्मान्न कस्यचिद्रोहमाचरेत् स तथाविदः आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम्। एषा तवानुजा बाला कृपणा पुत्रिकोपमा हन्तुम् नार्हसि कल्याणीमिमाम् त्वम् दीनवत्सलः। श्रीशुक उवाच एवम् स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः नन्यवर्तत कौरव्य पुरुषादाननुव्रतः। निर्बन्धम् तस्य तम् ज्ञात्वा विचिन्त्या नकदुन्दुभिः प्राप्तम् कालम् प्रतिव्योढुमिदम् तत्रान्वपद्यत। मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् यद्यसौ न निवर्तेत नापराधोऽस्ति दैहिनः। प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम् सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्। विपर्ययो वा किम् न स्यात् गतिर्धातुर्दुरत्यया उपस्थितो निवर्तेत निवृत्तः पुनरापतेत्। अग्नेर्यथा दारु वियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति। एवम् हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः। एवम् विमृश्यतम् पापम् यावदात्मनिदर्शनम् पूजयामास वै शौरिर्बहुमानपुरःसरम्। प्रसन्नवदनाम् भोजो नृशंसम् निरपत्रपम् मनसादूयमानेन विहसन्निदमब्रवीत्। वसुदेव उवाच नयस्यास्ते भयम् सौम्य यद्वागाः शरीरिणी पुत्रान् समर्पयिष्येष्या यतस्ते भयमुत्थितम्। श्रीशुक उवाच स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् वसुदेवोऽपि तम् प्रीतः प्रशस्य प्राविशद्गृहम्। अथ कालौपावृत्ते देवकी सर्वदेवता पुत्रान् प्रसुसुवे चाष्टौ कन्याम् चैवानुवत्सरम्। कीर्तिमन्तम् प्रथमजम् कंसायानकदुन्दुभिः अर्पयामास कृच्छ्रेण सोन्नृतादतिविह्वलः। किम् दुःसहम् नु साधूनाम् विदुषाम् किमपेक्षितम् किम् कार्यम् कदर्याणाम् दुस्त्यजम् किम् धृतात्मनाम्। दृष्ट्वा समत्वम् तच्छौरेः सत्ये चैव व्यवस्थितिम् कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत्। प्रतियातु कुमारोऽयम् न यस्मादस्ति मे भयम् अष्टमाद्युवयोर्गर्भान् मृत्युर्मे विहितः किल। तथेति सुतमादाय यया वानकदुन्दुभिः नाभ्यनन्दत तद्वाक्यमसतो विजितात्मनः। नन्दाद्याये व्रजे गोपायाश्चामीषाम् च योषितः वृष्णयो वसुदेवाद्या देवक्याद्याय दुस्त्रियः। सर्वे वै देवता प्राया उभयोरपि भारत ज्ञातयो बंधु सुहृदो ये च कंसमनुव्रताः एतत् कंसाय भगवान् थशंसाभ्येत्य नारदः भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ऋषेर्विनिर्गमे कंसो यदून्मत्वा सुरानिति देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति देवकीं वसुदेवं च निगृह्य निगडैर्गृहे जातं जातमहं पुत्रं तयोरजनशङ्कया मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा घ्नन्ति यसु त्रिपो लुब्धा राजानः प्रायशो भुवि आत्मानमिह सञ्जातं जानन् प्राग् विष्णुनाहतम् महासुरं कालनेमिं यदुभिः सव्यरुध्यत उग्रसेनं च पितरं यदुभोजान्धकाधिपम् स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे श्रीकृष्णावतारोपक्रमे प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।